अस्तु, अद्यतनविषयः अस्ति इत्संज्ञाप्रकरणम्। अयं पाठः आरब्धः गते सप्ताहे, अत्र ततः अग्रे सरेम। तर्हि सर्वेषां पुरतः करपत्रं स्यात् इत्संज्ञाप्रकरणम्। पुनस्मरणरूपेण पुनस्मरणरूपेण वदेम यत् उपदेशः, उपदेशः नाम कः इति कोऽपि वदति वा?
मूलरूपस्य नाम उपदेशः।
हा, नाम यत् उपदिष्टम्, पाणिनिना यत् उपदिष्टं सः उपदेशः। तत्र धातोः प्रत्ययस्य, आदेशस्य, आगमस्य च मूलरूपम् उपदेशः इति वदामः। उपदेशः इति मूलरूपम्। उदाहरणार्थं गतसप्ताहे वयं दृष्टवन्तः, तत्र गम् धातोः लौकिकरूपम् अस्ति गम्, किन्तु उपदेशे तस्य नाम अस्ति गम् ऋ। तर्हि उपदेशावस्थायां धातुः अस्ति गम् ऋ। अस्तु, समीचीनं। तत्र अत्र लिखितमस्ति, सर्वे पश्यन्तु, यथा गम् धातुः लटि गच्छति। सर्वे अवगच्छन्ति खलु लटि? लटि नाम लट् लकारस्य सप्तमी, हलन्तपदमस्ति। यथा भवत् इत्यस्य भवति, लट् इति लटि, लट् मे लट् लट् लकारे इति अर्थः, लटि गच्छति। अस्तु, तत्र गम् लृ इति अस्ति, अस्माभिः दृष्टं, तत्र लृकारस्य
महोदय अल्प वाल्यूम् कम् कम् अस्ति,
पुनः वदतु
वाल्यूम् शब्द
ध्वनिः अधिकः अस्ति वा?
ध्वनिः अधिकः नास्ति,
नास्ति नाम न श्रूयते इति वा? सर्वैः श्रूयते वा?
आम्
श्रूयते,
अस्तु अस्तु, अधिकम् अधिकम् अपेक्षितं चेत् उच्यतां। हा, अस्तु अस्तु, तर्हि अस्तु अस्तु भगिनि, अस्तु। तर्हि यथा अस्माभिः दृष्टं यत् उपदेशावस्थायां तत्र गम् लृ इति धातुः अस्ति, किन्तु लृ इति न तिष्ठति खलु? लृ न तिष्ठति इति कारणतः तस्य नाम अस्ति अनुबन्धः। लृ इति न तिष्ठति, तस्य नाम भवति अनुबन्धः, अथवा तस्य इत्संज्ञा भवति। स्वयम् अनुबन्धः तस्य इत्संज्ञा भवति, अथवा वयं वदामः यत् लृकारः इत्संज्ञकः वर्णः। लृकारस्य इत्संज्ञा भवति, स्वयम् इत्संज्ञकः वर्णः इति वदामः। स्पष्टम्? अग्रे अहम् उक्तवान् किञ्चित् पूर्वं यत् सर्वे पुस्तकद्वयं स्वीकुर्युः, पुस्तकद्वयं प्रायः केचन स्वीकृतवन्तः स्युः। तत्र अष्टाध्यायी सूत्रपाठः इति एकं पुस्तकमस्ति, केषाञ्चित् पार्श्वे अस्ति वा? अस्ति
अस्ति
अस्तु, सर्वे अहं वदामि, इदानीं वयम् अग्रे गच्छेम, किन्तु सर्वैः पुस्तकं स्वीकर्तव्यमस्ति। अग्रे अष्टाध्यायी इति अस्माकं मूलग्रन्थः अस्ति, करपत्राणि यानि मया दीयन्ते इति प्रमुखतया प्रयुज्यन्ते, किन्तु मध्ये मध्ये अष्टाध्यायीसूत्रपाठः अपि अपेक्षितः अस्ति।
महोदय, पुस्तकस्य नाम का?
पुनः ईमेल् प्रेषयिष्यामि, तत्र क्रयणार्थं तत्र लिङ्क् अहं दास्यामि. अस्तु, तत् तस्य नाम अस्ति अष्टाध्यायीसूत्रपाठः. अष्टाध्यायीसूत्रपाठः, तत्र पुष्पादीक्षिता इति लेखिका अस्ति. समीचीनं. तत्र इदानीं मास्तु, येषां पार्श्वे पुस्तकमस्ति तत्र पृष्ठसङ्ख्या 141 पश्यन्तु. येषां पार्श्वे अस्ति पुस्तकं तत्र पृष्ठसङ्ख्या अस्ति 141. तत्र यत् संज्ञाप्रकरणम् इति दत्तमस्ति. येषां पार्श्वे पुस्तकं नास्ति इदानीं चिन्ता नास्ति, सूत्राणि करपत्रे सन्ति एव. नो चेत् पश्यन्तु, नाम अस्माकं संस्कारः भवतु इति अष्टाध्यायी कीदृशग्रन्थः. तत्र अत्र पश्यन्तु, लिखितमस्ति यत् तत्र यत्संज्ञाप्रकरणम् अस्माकं करपत्रे लिखितमस्ति. तत्र थर्ड् प्यारा, तत्र अन्तिमवाक्यमस्ति, लिखितमस्ति प्रथमाध्यायस्य तृतीयपादस्य द्वितीयसूत्रात् आरभ्य अष्टमसूत्रपर्यन्तम् इत्संज्ञाप्रकरणम् इति लिखितमस्ति खलु करपत्रे. तत्र किं वक्तुमिच्छामि अत्र, यत् सूत्रसङ्ख्या अस्ति खलु 1, 3, 2, न क्षम्यतां 2, 1, 3, 2 इति सूत्रसङ्ख्या. अस्य अर्थः कः इति अत्र वक्ष्यते. अष्टाध्यायी इति ग्रन्थस्य नाम. अष्टाध्यायाम् अष्ट अध्यायाः सन्ति. अध्यायः तत्र प्रथमाध्यायः, द्वितीयाध्यायः, तृतीयाध्यायः, अष्टम अध्यायपर्यन्तम् अष्टाध्यायाः सन्ति. अतः ग्रन्थस्य नाम अष्टाध्यायी. अत्र यत्र कुत्रापि सूत्रसङ्ख्या भवति तत्र प्रथमसङ्ख्या अस्ति अध्यायस्य. अतः अत्र 1, 3, 2 इत्युक्ते प्रथमाध्यायः अष्टाध्यायीग्रन्थे. तत्र इदं सूत्रं, प्रथमं सूत्रं नाम यत्संज्ञाप्रकरणं, तत्र अष्टसूत्राणि, सप्तसूत्राणि सन्ति. तत्र एकत्र सन्ति ग्रन्थे, एकत्र सन्ति. अत्र प्रथम कुत्र इति चेत् प्रथमाध्याये प्रत्येकस्मिन् अध्याये चत्वारः पादाः सन्ति. चत्वारः पादाः, तर्हि अत्र प्रथमाध्यायः तृतीयपादः, अपि च तृतीये पादे द्वितीयं सूत्रं. तर्हि येषां पुस्तकमस्ति तत्र पश्यन्तु, तत्र प्रथमाध्याये तृतीयपादः इति लिखितमस्ति. तत्र प्रथमं सूत्रमस्ति भुवादयोधातवः इति प्रथमं सूत्रं. द्वितीयं सूत्रम् इति यत्संज्ञाप्रकरणस्य आरम्भः. द्वितीयं सूत्रं यथा लिखितमस्ति अत्र, द्वितीयसूत्रात् आरभ्य अष्टमसूत्रपर्यन्तम् इति यत्संज्ञाप्रकरणम् इति एव अवगन्तव्यमस्ति. यत्संज्ञाप्रकरणम् अस्मिन् ग्रन्थे कुत्र अस्ति इति प्रदर्शयितुम् इष्टवान्. अस्तु, अग्रे सरेम. अनुनासिकस्वराः, तत्र गते सप्ताहे वयं दृष्टवन्तः यत् यत्र अनुनासिकचिह्नमस्ति, चन्द्रबिन्दी इति वदामः हिन्दीभाषायाम्, अत्र अनुनासिकचिह्नम् इति वदामः, यत्र स्वरस्य उपरि अनुनासिकचिह्नमस्ति तत्र अनुनासिकवर्णः अस्ति. यथा उकारः, उकारस्य रूपद्वयमस्ति, सामान्य अननुनासिकरूपमस्ति उ इति उकारः, अनुनासिकरूपमस्ति उकारः ऊकारः. नासिकया यदा वायुः गच्छति तदा अनुनासिकवर्णः भवति. तत्र यत्र उपदेशे कस्यचित् वर्णस्य स्वरस्य अनुनासिकचिह्नम् इति चेत् तत्र तस्य इत्संज्ञा भवति इति उपदेशे जुनासिक इति इति सूत्रेण वयं दृष्टवन्तः गते सप्ताहे खलु. इदानीम् इदं ज्ञानं प्राचीनकाले आसीत्, इदानीं नास्ति. किन्तु वयम् अनुमानं कुर्मः, कथम् इति चेत् गम्र इति धातुः लोके लृकारः नास्ति खलु. लृकारः नास्ति, गम् इति धातुः. उपदेशावस्थायां लृकारः अस्ति. लृकारस्य इत्संज्ञा भवति अनेन सूत्रेण, यतोहि तत्र सप्तसूत्राणि सन्ति. इदानीं वयं परिशीलयिष्यामः सप्तसूत्राणि. किन्तु तेषु सप्तसु सूत्रेषु एकमेव सूत्रमस्ति येन एकस्य स्वरस्य इत्संज्ञा भवेत्. इदं सूत्रमस्ति उपदेशे अच् अनुनासिका इत्. उपदेशावस्थायां यः अच् वर्णः अस्ति सः अनुनासिकः अस्ति चेत् तस्य इत्संज्ञा भवति इति सूत्रस्य अर्थः. तर्हि यतोहि लृकारः लोके न तिष्ठति किन्तु उपदेशावस्थायाम् आसीत्, अतः वयम् अनुमानं कुर्मः, वयम् अवगच्छामः यत् अनेन सूत्रेण उपदेशे अच् अनुनासिक एत् इति सूत्रेण तस्य इत्संज्ञा जाता. इत्संज्ञा जाता अनेन सूत्रेण. अतः अस्य लृकारस्य लृकारः स्वरः तु, अतः तस्य अनुनासिकचिह्नं स्यात् इति स्पष्टं वा? एतावता गतसप्ताहे चर्चितवन्तः अस्मिन् विषये. अस्तु, समीचीनम्. अस्तु, तर्हि सूत्रमस्ति उपदेशे जुनुनासिक इत्. मम प्रश्नः अस्ति, प्रथमं सूत्रं पश्यामः. अत्र लिखितमस्ति उपदेशे जुनुनासिक इत्. अत्र शान्तिभगिनी पठति वा सूत्रार्थः? तत्र इत्स अग्रे लिखितमस्ति इत्संज्ञाप्रकरणं. सर्वे पश्यन्तु इत्संज्ञाप्रकरणं. चत्वारि सूत्राणि धातुषु अपि प्रत्ययेषु अहं वदामि, किन्तु अत्र सूत्रार्थं पठतु. उपदेशे जुनासिक इत्.
आम्, उपदेशे जुनासिक इत्. उपदेशे धातौ प्रत्यये आदेशे आगमे च अच्वर्णः अनुनासिकः चेत् तस्य इत्संज्ञा भवति. उपदेशे सप्तम्यन्तम् अच् प्रथमान्तम् अनुनासिकः प्रथमान्तम् इत् प्रथमान्तम् अनेकपदमिदं सूत्रम्. सूत्रं स्वयं सम्पूर्णाम् उपदेशे अच् अनुनासिकः इत्.
क्षम्यतां, सम्पूर्णम् इति स्यात्. अस्तु, तर्हि सूत्रं स्वयं सम्पूर्णमस्ति इत्युक्ते अनुवृत्तिः नास्ति. अत्र उपदेशे अच् अनुनासिक एत्. तर्हि मम प्रश्नः अस्ति, कीदृशसूत्रमस्ति? गते सप्ताहे वयं परिशीलितवन्तः खलु पूर्वतने करपत्रे, तत्र संज्ञासूत्रं, परिभाषासूत्रं, विधिसूत्रं, नियमसूत्रम्, अधिदेशसूत्रम्, अधिकारसूत्रम्. कोऽपि वदति वा कीदृशसूत्रमस्ति? समीचीनं, बहु सुन्दरमस्ति. तर्हि संज्ञासूत्रमस्ति खलु, यतोहि अत्र नामकरणं क्रियते. तर्हि गम्र इति धातौ लृकारस्य इत्संज्ञा भवति अनेन सूत्रेण. तस्य इत्संज्ञा भवति नाम नामकरणं क्रियते. तस्य इत्संज्ञा इति नामकरणम्. अनन्तरम् एकवारं यदा इत्संज्ञा जाता, इदानीम् अग्रिमं सूत्रमस्ति तस्य लोपः. तत्र येषां करपत्रं मुद्रितमस्ति तत्र अग्रे तृतीयपुटे अस्ति, नाम तत्र सर्वेषां सूत्राणाम् अनन्तरम् अन्तिमं सूत्रमस्ति, यत् तत्र लिखितमस्ति इत् लोपविधिः. पश्यन्ति वा तस्य लोपः इति सूत्रस्य अर्थः उक्तः?
आं महोदय.
अस्तु, तर्हि प्रिया भगिनी पठति वा तस्य सूत्रस्य अर्थम्?
इत्लोपः विधिः. एकवारं यदा कस्यचित् वर्णस्य, वर्णसमूहस्य च इत्संज्ञा भवति, तदा तस्य लोपः इति सूत्रेण तस्य लोपः भवति. तस्य लोपः इत्संज्ञकस्य वर्णस्य लोपो भवति. तस्य षष्ट्यन्तं लोपः प्रथमान्तं द्विपदमितम् इदं सूत्रम् उपदेशे.
अत्र तस्य अस्तु अनुवृत्तिसहितसूत्रमिति पठतु. अनुवृत्तिसहितसूत्रम्
उपदेशे अनुनासिक इत्यस्मात् इत्यस्य अनुवृत्तिः षष्ट्यर्थे. अनुवृत्तिसहितसूत्रं तस्य इतः लोपः.
अत्र तस्य नाम कस्य? सत्यं. तस्य नाम तस्य इत्संज्ञकवर्णस्य, यस्य वर्णस्य इत्संज्ञा जाता तस्य वर्णस्य लोपः भवति. तर्हि आरम्भे वयं दृष्टवन्तः यत् अस्य करपत्रस्य आरम्भे उपदेशे जुनासिक एत् इत्यनेन सूत्रेण गम् लृ इति धातोः लृकारस्य इत्संज्ञा जाता. अनन्तरं तस्य लोपः इत्यनेन यः वर्णः इत्संज्ञकः अस्ति तस्य लोपः क्रियते, तस्य लोपः इति सूत्रेण. तर्हि मम अग्रिमप्रश्नः अस्ति यत् तस्य लोपः इति कीदृशं सूत्रम्? अत्र सूत्राणां नाम अहं नामानि वदामि. संज्ञासूत्रमस्ति वा? नामकरणं तु नास्ति खलु? अस्तु. अनन्तरं परिभाषासूत्रम् इति नाम साहाय्यं कृत्वा अपरस्य सूत्रस्य अर्थस्य पूरणार्थं परिभाषासूत्रम् आगत्य साहाय्यं करोति. अत्र नास्ति. अग्रे विधिसूत्रं, येन कार्यं विधीयते यथा इको यनचि. अत्र विधिसूत्रमस्ति वा? नाम कार्यं नाम अत्र लोपः अस्ति, एकं कार्यमस्ति लोपः. लोपः सिद्ध्यति अनेन सूत्रेण, अतः विधिसूत्रमस्ति. स्पष्टं वा? विधिः नाम आदेशः. यत्र आदेशः नाम लोके यत् वयम् आदेशः इति वदामः तादृशं नाम कार्यम् आदिश्यते अनेन सूत्रेण. तर्हि विधिसूत्रमस्ति तस्य लोपः. अस्तु. एतावत् वयं दृष्टवन्तः गते सप्ताहे उपदेशे अचुरनासिक एत् इति सूत्रेण गम् लृ इत्यस्य लृ इत्यस्य लोपः जातः, अतः लृकारः अनुनासिकः स्यात् इति अनुमानम् अस्माभिः क्रियते. इतः अग्रे सरेम. तर्हि इदानीं राजेन्द्रमहोदय, यत्र इत्संज्ञापकरणमस्ति तस्य उपरि लिखितमस्ति सप्तसूत्रेषु.
आम्, सप्तसु सूत्रेषु चत्वारि सूत्राणि सर्वेषु उपदेशेषु प्रयुज्यन्ते. धातुषु प्रत्ययेषु च त्रीणि केवलं प्रत्ययेषु एव प्रयुज्यन्ते न धातुषु. अत्र प्रत्ययः इत्यनेन प्रत्ययः आदेशः आगमाः त्रयाणाम् अपि ग्रहणम्.
अस्तु. ग्रहणं तत्र ग्रहणमिति भवेत्. अस्तु. त्रयाणामपि ग्रहणम्. अस्तु. समीचीनमस्ति. तर्हि अत्र एकनिमेषः भगिनि,
एकनिमेषः.
द्वितीयपुटे अथवा करपत् यत्र ये सङ्गणके ये पश्यन्ति तत्र इत्संज्ञापकरणमिति लिखितमस्ति. सर्वोपरि अस्ति इत्संज्ञापकरणम्. अनन्तरं शीर्षकः अस्ति अनुनासिकस्वराः इति लिखितमस्ति खलु शीर्षकः. ततः अग्रे एकं शीर्षकः अस्ति, तत्र इत् संज्ञापकरणं पुनः लिखितमस्ति. तत्र स्मः. ततः उपरि अपि किञ्चित् उपरि लिखितमस्ति, तर्हि इत्संज्ञापकरणे सप्तसूत्राणि सन्ति इति लिखितमस्ति खलु. तर्हि इत्संज्ञापकरणे सप्तसूत्राणि सन्ति. अष्टाध्याय्यां चतुस्सहस्रं सूत्राणि, किन्तु तेषु केवलं सप्तभिः इत्संज्ञा विधीयते. सप्तसूत्राणि ज्ञायन्ते चेत् सर्वम् इत्संज्ञापकरणं ज्ञायते. इमानि च सप्तसूत्राणि पाणिनिना सौकर्यार्थम् एकत्र स्थापितानि. तत्र सप्तसु सूत्रेषु चत्वारि सूत्राणि सर्वेषु उपदेशेषु प्रयुज्यन्ते. सर्वेषु नाम तत्र धातुषु, प्रत्ययेषु, आदेशेषु, आगमेषु इति इति सर्वेषु प्रयुज्यन्ते. अनन्तरं त्रीणि केवलं प्रत्ययेषु. अत्र लिखितमस्ति यत् प्रत्ययः इत्युक्ते प्रत्ययाः, आदेशाः, आगमाः, त्रयाणामपि ग्रहणं. स्पष्टमस्ति वा? तर्हि विभजनमस्ति. सप्तसूत्राणि सन्ति, तत्र विभजनमस्ति. चत्वारि सूत्राणि सर्वेषु उपदेशेषु, त्रीणि सूत्राणि केवलं प्रत्ययेषु इति बुद्धं वा? अस्तु. इदानीं सप्तसूत्राणि सन्ति येन इत्संज्ञा विधीयते. अतः सर्वाणि सूत्राणि कीदृशानि सन्ति? कीदृशानि सन्ति नाम संज्ञासूत्रं, परिभाषाविधिसूत्रं, संज्ञासूत्राणि सर्वाणि खलु. तेषां कार्यमस्ति नामकरणम्. अतः संज्ञासूत्राणि सन्ति. अस्तु. इदानीम् अस्माभिः अवगन्तव्यमस्ति प्रत्येकं सूत्रस्य अर्थः कः, नाम केनचित् सूत्रेण कीदृशवर्णस्य अथवा वर्णसमूहस्य इत्संज्ञा विधीयते. उपदेशे अचनुनासिक एत् इत्यनेन कीदृशवर्णस्य तत्र इत्संज्ञा विधीयते, कोऽपि वदति वा?
अच् वर्ण.
अच् नाम, हा नाम यः कोऽपि अच् वर्णः न, यः कोऽपि वर्णः न, हा विशेषतः
सर्वे स्वराः,
सर्वे स्वराः इति वा अथवा हा ये अचुवर्णाः अनुनासिकाः ते इत्संज्ञकाः भवन्ति अनेन सूत्रेण. तर्हि अत्र उपदेशे सप्तम्यन्तमस्ति खलु. अत्र पूर्वकार्यमिति अर्थः न, अत्र विषयसप्तमी. विषयः नाम उपदेशे इति प्रसङ्गः अस्ति खलु. उपदेशावस्थायाम् इति प्रसङ्गः, विषयः. अतः तत्र यत्र वयं वदामः, वयम् उक्तवन्तः खलु, तत्र पूर्वकार्यं सप्तमीविभक्तिः इत्युक्ते पूर्वकार्यं. यत्र विधिसूत्रमस्ति, विधिसूत्रम् इको यन् अचि, अचि परे एकः स्थाने यण, इको यन् अचि, तत्र अचि इति सप्तमी अस्ति. तत्र इको यन् अचि इति कीदृशसूत्रं? विधिसूत्रम्. अतः तत्र पूर्वकार्यम् इति अर्थः. अत्र कार्यं तु नास्ति एव, कार्यं नास्ति खलु, नामकरणमस्ति. अतः सप्तमीविभक्तिः अत्र उपदेशे, अत्र विषयसप्तमी इति वदामः. अनन्तरं अच् इति, अच् इति का विभक्तिः अस्ति? अच्
प्रथमः.
हा अनुनासिकः इति का विभक्तिः अस्ति? एत् इति का विभक्तिः अस्ति?
प्रथमा.
अस्तु, समीचीनं. नाम अत्र प्रथमविभक्तेः कार्यं किं?
नामकरणं
खलु. हा अत्र विशेष्यम् अपि अस्ति, विशेषणम्. अत्र विशेष्यम् अस्ति एकम् अन्तरं, विशेषणद्वयमस्ति. विशेष्यं किम्?
नाम
न अत्र चत्वारि पदानि सन्ति अस्मिन् सूत्रार्थे. उपदेशे अच् अनुनासिकः इत्
चतुर्षु पदेषु
विशेष्यम् इति विशेष्यम् इति अच् अस्ति खलु अच् यत् किमर्थमिति चेत् अच् अच् इति विशेष्यं यथा बालक सुन्दरः बालकः तत्र बालकः कीदृशः इति चेत् सुन्दरः तर्हि सुन्दरः इति विशेषणमस्ति बालकः इति विशेष्यं खलु अत्र अच् इति विशेष्यमस्ति यथा बालकः कीदृशः अच् अनुनासिकः अनुनासिकः तादृशः यथा सुन्दरः बालकः अनुनासिकः अच् इति एकं विशेषणमस्ति अनुनासिकः पुनः द्वितीयं विशेषणमस्ति नाम यदि अच् अनुनासिकः अस्ति तर्हि सः अच् अपि किम् इत् संज्ञकः तर्हि इत् इति नामकरणमस्ति इत् नामकरणं नाम तत्र विशेषणमस्ति अच् यः अच् अनुनासिकः अस्ति उपदेशावस्थायां यः अच् अनुनासिकः अस्ति सः इत् अपि भवति इति नामकरणम् अच् इति विशेष्यम् अनुनासिकः विशेषणम् इत् अपि विशेषणं स्पष्टं वा
पुनः वदतु
अच् इति विशेष्यम् अनुनासिकः इति विशेषणं यः अच् अनुनासिकः अस्ति सः इत् संज्ञकः अपि भवति इत् अपि विशेषणम् स्पष्टम् अग्रे सरेम द्वितीयं सूत्रं दीपा भगिनी पठति वा
महोदय एकवारं पुनः एकवारं पाठयतु महोदय
नाम उपदेशे अच् अनुनासिकः इति वा
आमामाम्
अस्तु उपदेशे इति सप्तमी अन्तमस्ति तत्र विषयसप्तमी नाम सन्दर्भः कः इति चेत् उपदेशावस्थायाम् उपदेशस्य अवस्था नाम मूल अवस्था यतोहि अनन्तरम् अनुनासिकचिह्नं तु न भवति लोके किन्तु उपदेशे तत्र अनुनासिकचिह्नानि सन्ति एतत् सर्वमस्ति मूले तत्र अतः उपदेशावस्थायां यः अच् इति विशेष्यं यः अच् अनुनासिकः अस्ति सः इत्संज्ञकः अपि भवति तर्हि अनुनासिकः इति विशेषणमस्ति कीदृशः अच् अनुनासिकः तादृश अच् यत्र भवति उपदेशावस्थायां सः इत्संज्ञकः अपि भवति
महोदय एक उदाहरणम्
उदाहरणार्थं तदेव यत् गम्र इति अस्ति गम्र इति धातुः अस्ति गम्र तत्र लृकारः अस्ति इति कारणतः उपदेशे अस्ति इति वयं जानीमः यतोहि लोके लृकारः नास्ति तर्हि उपदेशावस्थायां गम्लृ इति धातुः अस्ति लृकारः अच् वर्णः अस्ति खलु अच् वर्णः अस्ति तर्हि तस्य अपि च लृकारस्य अनुनासिकचिह्नम् अस्ति कथं जानीमः यतोहि लोके लृकारः नास्ति अतः तस्य इत्संज्ञा लोपः च अभविष्यत् स्यात् तस्य इत्संज्ञा स्यात् तर्हि लृकारः अनुनासिकः अस्ति गम्र इति अनुनासिकः अस्ति अपि च अनुनासिकः अस्ति इति कारणतः अनेन सूत्रेण तस्य इत्संज्ञा भवति अनन्तरं केन सूत्रेण तस्य एकवारं यदा लृकारः अनुनासिक संज्ञकः जातः तदानीं केन सूत्रेण तस्य लोपः भवति तस्य लोपः तिनेन खलु अस्तु यः कोऽपि वर्णः अनुनासिकः भवति क्षम्यतां यः कोऽपि वर्णः इत्संज्ञकः भवति तस्य लोपः भवति अनेन सूत्रेण तस्य लोपः इति सूत्रेण सर्वेषाम् इत्संज्ञकवर्णानां लोपः भवति तस्य लोपः इति सूत्रेण अन्यत् उदाहरणं ददामि यथा कश्चन वद् धातुः अस्ति खलु वदति इत्यस्य वद् धातुः तत्र उपदेशे उपदेशे धातुः अस्ति वद वद नाम अकारः अस्ति लोके तत्र अकारः अस्ति वा धातौ धातुः अस्ति वद् लोके किन्तु उपदेशावस्थायां धातुः भव धातुः भवति वद अतः तत्र वद इत्यस्मिन् अन्तिम अकारः अनुनासिकः अस्ति अनुनासिकः अस्ति इति कारणतः उपदेशे अच् अनुनासिकः इति सूत्रेण तस्य अवर्णस्य इत् संज्ञा भवति
महोदय अकारस्य तत्र अनुनासिकचिह्नः अपि अस्ति वा
हा सत्यं
वद
हा तत्र वद वद इति अस्ति न कोऽपि वदति किन्तु तथा अस्ति पाणिनीयव्यवस्थायां तत्र वद इत्यस्मिन् अन्तिम अकारः अनुनासिकः अस्ति तत्र अनुनासिकचिह्नम् अस्ति तस्य उच्चारणमपि तथा अस्तु अग्रे गत्वा बहूनि उदाहरणानि वयं परिशीलयिष्यामः किन्तु सिद्धान्तः स्पष्टः अस्ति वा अस्तु दीपा भगिनी अग्रे पठतु कृपया
अस्तु महोदय हलन्त्यम् उपदेशस्य अन्ते हल् वर्णः अस्ति चेत् तस्य हल् वर्णस्य इत् संज्ञा भवति हल् प्रथमान्तम् अन्त्यं प्रथमान्तं द्विपदमिदं सूत्रम् अनुवृत्तिः अनुवृत्तिसहितसूत्रम् उपदेशे अन्त्यं हल् इत्
अस्तु तस्य अस्य सूत्रस्य अर्थः कः भगिनि
इत्युक्ते हल् वर्णः अन्ते आगच्छति चेत् तस्य इत् संज्ञा भवति तस्य लोपः भवति
हा हल् वर्णः नाम व्यञ्जनं खलु सर्वे जानन्ति अस्तु बहु समीचीनमस्ति अत्र अत्र सर्वे पश्यन्तु तत्र अस्य पाठस्य अन्ते तत्र अभ्यासः इति कश्चन भागः अस्ति अभ्यासः पश्यन्ति वा तत्र धातवः अस्ति तत्र प्रथमधातुः अस्ति डूपचस् डूपचस् पश्यन्ति तत्र अन्तिमवर्णः कः मूर्धन्यषकारः खलु हा षकारः हल् वर्णः अस्ति वा अस्तु भगिनी तत्र अत्र दीपा भगिनी वदतु केन सूत्रेण तस्य इति संज्ञा भवति
हलन्त्यम् इत्यनेन सूत्रेण षकारस्य संज्ञा भवति
खलु सर्वे अवगच्छन्ति वा अत्र हल् वर्णः अस्ति अनन्तरम् अत्र पश्यन्तु डूपचास् इत्यस्मिन् तत्र तत्र चकारोत्तरवर्ति यः यः वर्णः सः कः वर्णः नाम चकारस्य अनन्तरं षकारात् पूर्वं कः वर्णः अस्ति नाम अकारः अस्ति खलु यतोहि चकारे दण्डः नास्ति चकारे दण्डः नास्ति यथा हिन्दीभाषायां तत्र हलन्ति इति वदामः तत्र नास्ति अत्र दण्डः अतः अकारः अस्ति चकारे अकारः अस्ति स च अकारः अनुनासिकः अस्ति तत्र अनुनासिकचिह्नं पश्यन्ति खलु तत्र अनुनासिकचिह्नं चकारस्य चिह्नं नास्ति अकारस्य चिह्नमस्ति चकारे अकारः यः अस्ति नाम चकारोत्तरवर्ति यः अकारः तस्मिन् अनुनासिकचिह्नम् अस्ति तर्हि केन सूत्रेण तस्य इति संज्ञा भवति उपदेशे जुनासिके यतोहि तत्र अच् वर्णः अस्ति खलु हल् वर्णः तु नास्ति अच् वर्णः अस्ति अनुनासिकः अपि अस्ति अतः उपदेशे जुनासिक इति सूत्रेण तस्य इति संज्ञा भवति तर्हि षकारस्य इति संज्ञा भवति हलन्त्यमिति सूत्रेण उपदेशे तत्र अनुनासिक अच् वर्णः अकारः उपदेशे जुनासिक इति सूत्रेण तस्य इति संज्ञा भवति द्वयोः वर्णयोः केन सूत्रेण लोपः अस्तु नैपुण्यं सर्वेषां बहु समीचीनमस्ति अस्तु तर्हि इदानीं हलन्त्यमिति सूत्रमस्ति इदानीं दीपा भगिनी पुनः वदतु तत्र अनुवृत्तिसहितसूत्रमिति पश्यतु पुनः पुनः पठतु
पुनः पठामि अस्तु
अन्ते अन्ते यः अनुवृत्तिसहितसूत्रम्
अनुवृत्तिसहितसूत्रम् उपदेशे अन्त्यं हल् इत्
अस्तु इदानीं मम प्रश्नः अग्रिमप्रश्नः अस्ति हेमा भगिनी अत्र लिखितमस्ति उपदेशे अन्त्यं हल् इत् चत्वारि पदानि सन्ति तेषु चतुर्षु पदेषु कानि पदानि अन्तर्भूतानि सन्ति हलन्त्यम् इति सूत्रे साक्षात्
कुत्र डुपचष्
वा न न तत्र मास्तु इदानीं पुनः यत्र सूत्राणि सन्ति अत्र द्वितीयं सूत्रमस्ति हलन्त्यं तस्य अनुवृत्तिसहितसूत्रमस्ति उपदेशे अन्त्यं हल् इत् चत्वारि पदानि सन्ति उपदेशे अन्त्यं हल् इत् चतुर्षु पदेषु कानि पदानि साक्षात् अन्तर्भूतानि नाम सम्मिलितानि सन्ति हलन्त्यमिति सूत्रे नाम हलन्त्यम् इति पदविच्छेदं करोतु
हल् प्रथमान्तम् अन्त्यमपि प्रथमान्तम्
इति कति पदानि सन्ति
द्विपदमिदं सूत्रं
समीचीनं तर्हि सूत्रे साक्षात् हल् अस्ति अन्त्यमस्ति किन्तु अनुवृत्तिसहितसूत्रमिति अस्मिन् चत्वारि पदानि सन्ति न तु द्वे पदे तर्हि चतुर्षु कानि पदानि साक्षात् हलन्त्यमिति तत्र हल् अस्ति खलु अनन्तरम् अन्त्यम्
अवगतं
महोदय यत् अहं वदामि उदाहरणार्थं न अत्र वदामि यत् हल् अन्त्यम् अत्र अनुवृत्तिसहितसूत्रमस्ति उपदेशे अन्त्यं हल् इत् तत्र अन्त्यम् इति पदं हलन्त्यमिति सूत्रे अस्ति वा अनन्तरं हल् इति पदं हलन्त्यमिति सूत्रे अस्ति वा
अस्ति
उपदेशे इति पदं तत्र अस्ति वा
न
तत् अनुवृत्ति
उपदेशे तत्र नास्ति इति मूलमस्ति मम कथनस्य आशयः सः नाम उपदेशे इति पदं सूत्रे नास्ति खलु इट्स् इट् इति शब्दः
अपि नास्ति
नास्ति अतः तत्र उपदेशे अपि च इत् कुतः आगतः उपदेशे इति शब्दः
पूर्वसूत्रतः उपदेशे जनुनासिक इत्युक्तः
नाम अत्र उपदेशे अचरुनासिक इत्यस्य सूत्रसङ्ख्या का प्रथमाध्याये तृतीये पादे कथमं सूत्रं
द्वितीयसूत्रमस्ति
द्वितीयसूत्रम् अपि हलन्त्यमिति कथमं सूत्रं अतः किमस्ति अत्र अहम् आपणं गच्छामि अनन्तरं श्यामः वदति अहमपि वयम् अवगच्छामः आपणं गच्छामि न उक्तं श्यामः आपणं गच्छामि इति न उक्तवान् किन्तु अहम् अपि इति श्रुत्वा यतोहि रामः उक्तवान् अहम् आपणं गच्छामि श्यामः यदा अहम् अपि इति उक्तवान् तर्हि वयं सर्वे ये श्रुतवन्तः वयम् अवगच्छामः यत् आपणं गच्छामि इति अपि अर्थः अस्ति वयम् अर्थपूर्णं कुर्मः अत्रापि तथा उपदेशे अचुर्नासिक इत् कोऽपि वदति अनन्तरम् अन्य कोऽपि वदति हलन्त्यं तर्हि हलन्त्यमपि उपदेशे उपदेशावस्थायां यः हल् अन्त्यं नाम अन्ते अस्ति तस्य अपि इत्संज्ञा भवति पाणिनिः किम् इच्छति किं पाणिः किम् इच्छति इच्छति यत् प्रत्येकं सूत्रं यावत् लघु भवितुमर्हति तावत् समीचीनं नाम हलन्त्यमिति सूत्रम् उपदेशे अन्त्यं हल् इति भवितुम् अर्हति स्म किन्तु पाणिनिना किं चिन्तितं किमर्थं द्विवारम् उपदेशे इति वदामि न आवश्यकं यतोहि प्रथमे सूत्रे तु आसीत् एव अतः लाघवं भवति, लघु लघुत्वम् अवगम्यते त अवगम्यते चेत् वा अत्र
एकः प्रश्नः तर्हि कदा न्याय अनुवृत्तिः कदा स्थगयति तद् कथम् अस्माभिः ज्ञायते
कथमस्माभिः ज्ञायते इति नाम तत्र वयम् एकवारं यदा अस्माकं संस्कारः भवति नाम अस्माकम् अनुभवः भवति तदा वयं स्वयम् अवगन्तुं शक्नुमः यदा सूत्रार्थः ज्ञायते हलन्त्यम् इति अस्य सूत्रार्थः यः कोऽपि येन केनचिदपि ज्ञायते सः अनुमानं कर्तुं शक्नोति यत् उपदेशे अपि स्यात् इदपि स्यात् पूर्वतने सूत्रे पदद्वयमपि आसीत् अतः अनुवृत्तिः भवेत् किन्तु ये पण्डिताः व्याकरणे ये पण्डिताः सन्ति व्याकरणाः ते टीकायां लिखन्ति ते ददति तत्र टीकायाम् अतः पठनेन अपि वयम् अवगच्छामः अनुमानं कृत्वा अपि वयम् अवगच्छामः आरम्भे वयं पठित्वा अवगच्छामः अनन्तरं यदा अनुभवः भवति तदा वयं स्वयम् अवगन्तुं शक्नुमः अन्य कोऽपि प्रश्नः वा
अनुवृत्तिः इत्युक्ते किं महोदय
अनुवृत्तिः नाम पुनः आवृत्तिः अनु इति उपसर्गः अस्ति खलु नाम अनुगच्छति कोऽपि अग्रे गच्छति अनन्तरं कोऽपि अनुगच्छति नाम तस्य पृष्ठभागे अनुगच्छति अनु तर्हि अनु नाम वृत्तिः नाम अस्तित्वम् अथवा अस्तित्वं तर्हि अनुवृत्तिः इत्युक्ते उपदेशे अपि च इत् तयोः पदयोः अस्तित्वं नाम वृत्तिः तयोः पदयोः वृत्तिः आसीत् उपदेशे इति सूत्रे अनन्तरं द्वयोः पदयोः पुनः वृत्तिः भवति हलन्त्यम् इति सूत्रे अतः अनुवृत्तिः नाम यतोहि तत्र पूर्वमासीत् प्रथमे सूत्रे आसीत् अनन्तरं पुनः वृत्तिः भवति अत्र अनुवृत्तिः स्पष्टमस्ति वा
धन्यवादः
अस्तु तर्हि अत्र उपदेशे अपि च इति उपदेशे अचनुनासिक इत्यस्मात् सूत्रात् द्वयोः पदयोः अनुवृत्तिः इति वदामः स्पष्टं वा अस्तु तर्हि अग्रे गच्छेम वेङ्कटेशमहोदय अग्रे पठति वा
महोदय रजनः अस्मि अत्र प्रश्नः अस्ति यदा वयं केवल हलन्त्यं वदामः तत्तु प्रायशः यदि अनुवृत्तिः न भवति कोऽपि कार्यं न भवितुमर्हति एवं वा
यदा अनुवृत्तिः न भवति अनुवृत्तिः अस्ति एव सर्वदा
न अस्ति यदा अहं चिन्तयामि हलन्त्यम् एव अस्ति तत्र तत् कोऽपि कार्यं न भवितुम् अर्हति यदि अनुवृत्तिः न भवेत्
यथा श्यामः वदति अहमपि यदि कोऽपि नाम रामः वदति अहम् आपणं गच्छामि इति कोऽपि न शृणोति चेत् रामः वदति अहम् आपणं गच्छामि तदनन्तरम् अजितः आगच्छति तदनन्तरमेव अनन्तरं रामः वदति अहमपि इति एव अजितः शृणोति सः अहमपि इत्यस्य अर्थः कः इति अवगन्तुं शक्नोति वा
न
खलु
तथैव
नाम एवमेव अहम् उदाहरणं दत्तवान् सत्यमेव अनुवृत्तिः अपेक्षिता अस्ति अनुवृत्तिं विना निरर्थकं भवति सूत्रं यथा अहमपि निरर्थकम् अस्ति यदि अहम् आपणं गच्छामि इति कोऽपि न शृणोति अहमपि इति न कोऽपि अर्थः सूचितं सत्यमेव अस्तु अग्रे महोदय
न विभक्तौ तु स्मः विभक्त्यां तवर्गीयवर्णः सकारः मकारः च इत्संज्ञकाः न भवन्ति विभक्तिश्च इत्यनेन सुप्रत्ययाः तिङ्प्रत्ययाः च सर्वे विभक्तिसंज्ञकाः इदं सूत्रं हलन्त्यम् इत्यस्य अपवादः। तुश्च इश्च मश्च तेषाम् इतरेतरद्वन्द्वः तुस्माः न अव्ययपदं। विभक्तौ सप्तम्यन्तं तुस्माः प्रथमान्तं त्रिपदम् इदं सूत्रम्। अनुवृत्तिसहितसूत्रं विभक्तौ तुस्माः न इतः।
अवगच्छति चेत् वदतु।
पुटसङ्ख्या द्वितीयपुटसङ्ख्या द्वितीयपुटः।
ओ क्षमता, मम दोषः।
अतः पूर्वम् उक्तमासीत् हलन्त्यम् इति, यदा हल् वर्णः अस्ति चेत् अन्ते तस्य हल् वर्णस्य इति संज्ञा भवति इति, परन्तु अत्र यदा यदा विभक्त्यां तवर्गीयवर्णः सकारः मकारः यद्यपि हलन्तवर्णः तथापि इति संज्ञकाः न भवन्ति, तादृशवर्णाः अन्ते आगच्छन्ति चेत्। तत्र विभक्तिश्च इत्यनेन सुप्रत्ययाः तिङ्प्रत्ययाः च सर्वे विभक्तिसंज्ञकाः, तद् सम्यक् न अवगच्छामि कथं तिङ्प्रत्ययाः विभक्तिसंज्ञकाः भवन्ति इति। परन्तु तत्र एतादृशं पूर्वम् उक्तं सूत्रस्य अपवादः भवति, यतः तत्र केचन अपवादः, यदा तवर्गीयवर्णः अन्ते आगच्छति सकारः वा मकारः वा आगच्छति इति संज्ञकाः न भवन्ति, परन्तु पूर्वं तथा उक्तं हलन्त् यदा आगच्छति हल् वर्णस्य इत्संज्ञा भवति इति, अतः अपवादः। तत्र तुस्माः कथम् आगच्छति इति इतरेतरद्वन्द्वः इति तत्र दत्तमस्ति, तुश्च इश्च मश्च तेषाम् इतरेतरद्वन्द्वः तस्तुस्माः इति। अत्र विभक्तौ इति पदं सप्तम्यन्तं भवति, अतः पूर्वकार्यं तुस्माः प्रथमान्तं त्रिपदं न इति अव्ययपदम्, अतः त्रिपदं सूत्रम्। अनुवृत्तिसहितसूत्रं विभक्तौ तुस्माः न इतः, अतः तत्र अनुवृत्तिसूत्रे त्रिपदानि तत्र सन्ति, यत् यानि सूत्रे सन्ति, न विभक्तौ तुस्माः इति, इतः इति अनुवृत्तिः तत्र।
कुतः आगतः स्यात्?
उपदेशे
सत्यमेव सत्यमेव नाम पुनः यथा इति शब्दः हलन्त्यम् इति सूत्रे इति शब्दः आगतः अनुवृत्तिरूपेण उपदेशे चुनासगेत् इति अस्मात् सूत्रात्, तथैव न विभक्तौ तु स्माः इत्यस्मिन् अपि इति शब्दः आगच्छति उपदेशे चुनासगेत् इति अस्मात् सूत्रात्। इदानीम् एकमपि वक्तव्यमस्ति यत् कुचित् यदा अनुवृत्तिः भवति कदाचित् तस्य वचनम् अथवा विभक्तिः परिवर्तयति। तत्र उदाहरणार्थम् अत्र पश्यन्तु, उपदेशे अचनासिक इति प्रथमपक्तौ एकवचने अस्ति, किन्तु अत्र बहुवचने अस्ति, यथा सरित् सरितौ सरितः, इत् इतौ इतः, बहुवचने अस्ति। तादृशं भवति, तादृशं परिवर्तनं भवति सूत्रेषु यथा आवश्यकम्। अत्र तु स्माः इति बहुवचने अस्ति खलु, तु स्माः इति बहुवचने अस्ति, अतः विशेषणविशेष्यभावः अस्ति। तत्र तु स्माः इति विशेष्यमस्ति, इतः इति विशेषणमस्ति। अत्र विभक्तौ वस्तुतः सप्तमीविभक्तौ अस्ति, किन्तु यथा उपदेशे इति विषयसप्तमी अस्ति, यतोहि अत्र पुनः संज्ञासूत्रमस्ति न तु विधिसूत्रम्, अतः पूर्वकार्यम् इति अर्थः नास्ति, यतोहि कार्यं तादृशं न। विभक्तौ इति अर्थः विषय नाम तस्मिन् सन्दर्भे, तस्मिन् प्रसङ्गे, विभक्तौ इति अवस्थायां, विभक्ति अवस्थायाम् इति अर्थः। अत्र विभक्तिश्च इति एकं सूत्रमस्ति, तद् विभक्तिश्च अपि इति अपि नामकरणमस्ति, संज्ञासूत्रमस्ति। विभक्तिश्च नाम विभक्तिः नाम का इति एकं सूत्रमस्ति विभक्तिश्च। अनेन सूत्रेण न केवलं सुप्रत्ययाः अपि तु तिङ्प्रत्ययाः अपि विभक्तिसंज्ञकाः भवन्ति, यद्यपि लोके प्रसिद्धिः अस्ति सुप्रत्ययानां, नाम सु औजस् देवः देवो देवाः देवं देवौ देवान्, तत्र सुप्रत्ययाः सन्ति, सु औजस् अमौजस् इति इत्यादयः प्रत्ययाः सन्ति, नाम देवयोगः सु देवः, देव इति प्रातिपदिकं योगः औ देवौ, देवः योगः जस् इति तत्र किञ्चित् परिवर्तनं भवति देवाः, किन्तु प्रत्ययाः सन्ति. प्रत्ययशब्दं सर्वे जानन्ति खलु, प्रत्ययः यत् प्रत्ययः इत्युक्ते यः कोऽपि धातुः यत्किमपि प्रातिपदिकं धातुतः अथवा प्रातिपदिकात् यत्किमपि संयोजयामः अनन्तरं तस्य नाम भवति प्रत्ययः, तस्य नाम प्रत्ययः. तर्हि अत्र सुप्रत्ययाः तिङ्प्रत्ययाश्च विभक्तिसंज्ञकाः सन्ति. उदाहरणार्थं वयं जानीमः यत् देवः देवौ देवाः देवं देवौ देवान् इति तत्र विभक्तयः सन्ति खलु, प्रथमाविभक्तिः, द्वितीयाविभक्तिः, तृतीयाविभक्तिः. किन्तु वदन्ति तत्र वदसि, वदथः, वदथ, वदामि, वदावः, वदामः, तत्र सामान्यतया विभक्तिः इति शब्दः तस्मिन् सन्दर्भे न आगच्छति खलु. प्रथमविभक्तिः नाम तत्र प्रथमपुरुषः, मध्यमपुरुषः इति वदामः, न तु विभक्तिः खलु. किन्तु व्याकरणविषये तिप्तस् जि इति तत्र निप्वस्मस् तत्र एतत् सर्वं तत्र नव प्रत्ययाः भवन्ति. तत्र वदति, वदतः, वदन्ति, तिप्तस् जि इति, तत्र एते प्रत्ययाः अपि विभक्तिसंज्ञकाः सन्ति. अतः अनेन सूत्रेण न विभक्तौ तु स्माः, नाम देवः देवौ देवाः इति तत्र प्रत्ययाः ये सन्ति, अपि च वदति, वदतः, वदन्ति, तत्रापि ये प्रत्ययाः सन्ति, तेषाम् अन्ते सवर्गीय नाम तथ दध न अथवा सकारः अथवा मकारः भवति चेत् तेषाम् इत्संज्ञा न भवति. उदाहरणार्थं वदामि, तत्र देवः देवौ देवाः देवं, देवं नाम देवयोगः अम् प्रत्ययः अस्ति, अम् देव प्लस् अम् देवम्. तत्र मकारः अन्ते अस्ति, प्रत्ययस्य अन्ते मकारः, प्रत्ययः अस्ति अम् अम् इति प्रत्ययः साधारणतया हलन्त्यमिति सूत्रेण मकारस्य इत्संज्ञा भवति स्म, तस्य लोपः तेन मकारः अपगच्छति स्म, अपगच्छति चेत् देवमिति शब्दः न भवति, महान् क्लेशः. अतः पाणिनेन चिन्तितं यत् अन्यत् सूत्रमपेक्षितमस्ति, न विभक्तौ तु स्माः. विभक्ति अवस्थायां तवर्गीयवर्णाः सकारः मकारः चेत् यथा अम् तत्र मकारस्य इत्संज्ञा न भवति, हलन्त्यमिति नेन भवति स्म, अनन्तरं न विभक्तौ तु स्माः इति नेन बाधितमस्ति, न भवति. स्पष्टं स्यात् अत्र उपदेशे इति अस्य अनुवृत्तिः नास्ति. विभक्ति सन्दर्भः उपदेशः इति न, अत्र विभक्तौ अस्ति. यतोहि उदाहरणार्थं वदामि यत् देवः देवौ देवाः देवं देवौ देवान् अस्तु, तत्र प्रत्ययाः सन्ति सु औ जस् अम् ओट् शस्, तत्र द्वितीयविभक्तौ द्विवचने प्रत्ययः अस्ति ओट्, नाम मुडन्यटकारः अन्ते अस्ति, टकारस्य इत्संज्ञा भवति, न तिष्ठति. देवः देवौ देवाः देवं देवौ, देवौ देवौट् इति नास्ति, देवौट् नास्ति, टकारः नास्ति खलु, टकारस्य इत्संज्ञा भवति, न तिष्ठति. तर्हि अत्र नाम इत्संज्ञस्य इत्संज्ञकवर्णस्य निकाशानन्तरम् अपि न विभक्तौ तु स्मः कार्यं करोति, केवलम् उपदेशावस्थायामिति न. यत्र अनुबन्धाः न सन्ति तत्र नाम यत्र निकासनानन्तरमेव न विभक्तौ तु स्मः इत्यस्य प्रसक्तिः अस्ति. यदि उपदेशे एव आसीत् तर्हि अस्माकं कार्यं सिद्धं न स्यात्. सन्दर्भः अस्ति विभक्तिसन्दर्भः, न तु उपदेशसन्दर्भः. अस्तु, किञ्चित् अग्रेसरेम.
विभक्तिश्च इति अपि अनुवृत्तिसहितं सूत्रं वा? विभक्तिश्च इति सूत्रमपि
अनुवृत्ति नाम प्रत्येकम् अत्र न विभक्तौ सूतु स्मः इति अन्यत् सूत्रमस्ति, विभक्तिश्च इति अन्यत् पृथक् सूत्रमस्ति. तस्य सूत्रस्य पृथक्तया अनुवृत्तिसहितसूत्रं भवति. नाम यथा केचन कानिचन सूत्राणि सम्पूर्णानि सन्ति स्वयं, यथा उपदेशे आचरणनासिक एत् इत्यस्मिन् सूत्रं स्वयं सम्पूर्णं, तत्र अनुवृत्तिः नापेक्षिता अस्ति. किन्तु विभक्तिश्च नाम तत्र पूर्णवाक्यं नास्ति, तत्रापि अनुवृत्तयः सन्ति, अत्र न प्रदर्शितं. समीचीनम्. अस्तु,
एकः प्रश्नः अस्ति महोदय. इदानीं तत्र तिङ् प्रत्ययाः सर्वे लकारसंज्ञकाः इति कोऽपि सूत्रमस्ति वा?
अवश्यम्, अत्र न प्रदर्श्यते. तत्र किञ्चित् विषयान्तरमस्ति, किन्तु सत्यं तत्र लकारसम्बद्धाः प्रत्ययाः सन्ति. सत्यं,
धन्यवादः.
हा हा, अस्तु, अग्रे सुब्रह्मण्यमहोदय अस्ति वा? न्यूजर्सि सुब्रह्मण्यमहोदय.
आं महोदय,
अग्रिमं सूत्रं
आदिष्टुटवः.
आदिर् इटु डवः. अग्रे पठति वा महोदय?
आदिर् इटु डवः उपदेशस्य आदौ णि टु डु इति त्रिषु एकः वर्णसमूहः अस्ति चेत् तस्य इत् संज्ञा भवति. णि टु डु एते निबन्धाः धातुषु एव भवन्ति, अतः इदं सूत्रं वस्तुतः धातूनां कृते. णिः च तुः च डुः च तेषाम् इतरेतरद्वन्द्वः णि टुडु बहुवचने णि टुड्वः गुरुशब्दः इव. आदिः प्रथमान्तं, णि टुड्वः प्रथमान्तं, द्विपदमिदं सूत्रम्. आदिः इति इत् इति च बहुत्वे एकवचनम् अनुवृत्तिसहितसूत्रम्. उपदेशे धातोः आदयः निटु डवः इतः.
सूत्रस्य अर्थः अन्य कोऽपि सहायं कर्तुम् इच्छति वा? अत्र आद्य यिटुडवः, अत्र समयः न्यूनः, अतः वदामि. आद्य यिटुडवः तत्र सूत्रस्य अर्थः एवमस्ति, अत्र उपदेशे इति अस्य अनुवृत्तिः अस्ति. उपदेशावस्थायां धातोः आदिमः यिटुडवः, अत्र भागत्रयमस्ति. यि यकारे इकारः, टकारे उकारः, डकारे उकारः इति भागत्रयमस्ति. ति डु डु. अस्तु, पश्यन्तु तत्र अभ्यासविभागे तत्र प्रथमम् अभ्यास उदाहरणमासीत् डुपचस्. पश्यन्तु डुपचस् इति उदाहरणमासीत्. डुपचस् इति धातुः अस्ति, तत्र डु इति भागः अस्ति आरम्भे. अत्र पच् इति पच् इति लौकिकधातुः अस्ति. पच् पचति, माता पचति, तत्र पचिति धातुः, तत्र डु इति न तिष्ठति. डु इति भागः आतिर्यटु डवः इति सूत्रेण इत्संज्ञकः भवति. डु आदिर्यटु डवः तिनेन नाम अत्र केवलम् एकः वर्णः न, अत्र वर्णसमूहः अस्ति, दकारः उकारः च, दकारः उकारः च. अतः अत्र आतिर्युटुडवः तिनेन डु इति भागस्य इत्संज्ञा, अनन्तरं तस्य लोपः तिनेन तस्य लोपः भवति.
प्रश्नः अस्ति, टु इत्युक्ते वर्गः न वा अत्र?
न, केवलं हा सत्यं नाम तत्र प्रश्नः समीचीनः अस्ति, यतोहि सर्वे अवगच्छन्तु पाणिनेः एकः संक्षेपः अस्ति, नाम पञ्चवर्गाः सन्ति खलु, कवर्गः, चवर्गः, टवर्गः, तवर्गः, पवर्गः. तत्र संक्षेपार्थं पाणिनेः तत्र नामकरणमस्ति. कवर्गस्य नाम अस्ति कु, चवर्गस्य नाम अस्ति चु, तवर्गस्य नाम अस्ति टु, तवर्गस्य नाम अस्ति तु, अपि च पवर्गस्य नाम अस्ति पु, पकारे उकारः. तर्हि अत्र प्रश्नः उदेति यत् टकारे उकारः इत्युक्ते तवर्गः वा न, तथा. अत्र केवलं यि टु डु इति भागत्रयमस्ति. तत्र आदौ भवति चेत्, धातोः आदौ भवति चेत् भागस्य इत्संज्ञा भवति. तर्हि आदिर् यीटु डवः इति इत्यस्मिन् आदिः इति एकः शब्दः, यीटु डवः इति इतरेतर द्वन्द्वः अस्ति. यि टु डु बहुवचने यि टु डवः, यथा गुरवः यि टु डवः इति भागत्रयमस्ति. आदौ नाम आदयः यि टु डवः उपदेशावस्थायां धातोः इत्संज्ञकाः भवन्ति. अत्र उपदेशे इत्यस्य अनुवृत्तिः कस्मात् सूत्रात्?
उपदेशे जननासिक
सूत्रात्. समीचीनमस्ति. धातोः इत्यस्य अनुवृत्तिः तत्र अपरस्मात् सूत्रात्, भुवादयो दातवः. तत्र भुवादयो दातवः मया उक्तम् अस्ति, तत्र इत्संज्ञकप्रकरणं तस्मात् पूर्वं यत् सूत्रमस्ति भुवादयो दातवः, तस्मात् तस्य अनुवृत्तिः भवति. अनन्तरम् इतः भवति तत्र उपदेशे जुनास्क इत्. समीचीनं वा
महोदय? प्रश्नः अस्ति महोदय, अत्र तु प्रत्ययस्य विषये एतस्य सूत्रस्य प्रसक्तिः न भवति वा? धातुः एव वा?
वस्तुतः येषां चतुर्णां सूत्राणां सन्दर्भः भवति धातुषु अपि प्रत्ययेषु अपि, किन्तु अस्य सूत्रस्य यद्यपि प्रसक्तिः उभयत्र भवितुमर्हति स्म, किन्तु एवमस्ति यत् यि टु डु केवलं प्राप्यते धातोः आदौ, प्रत्ययानाम् आदौ न प्राप्यते. अतः धातुप्रसङ्गे एव भवति वस्तुस्थितिः. अस्तु, तर्हि अस्माकं समयः जातः, किन्तु अवगमनमस्ति खलु, नाम अत्र जाटिलीयम् अधिकं न स्यात् इति भाति. सर्वेषाम् अवगमनमस्ति वा?
अष्टाधरी अध्यायी कः अस्ति?
अष्टाध्यायी इति वा ग्रन्थस्य नाम? अद्य मया उक्तं भगिनी, तत्र ध्वनिमुद्रणं कृपया शृणोतु, तत्र अष्ट अध्यायाः सन्ति. ग्रन्थस्य नाम, पुस्तकस्य नाम अष्टाध्यायी, तत्र अष्ट
अध्यायाः.
न, तत्तु न लिखितमस्ति, अहम् उक्तवान् अद्य. अस्तु, तर्हि इदानीं तावदेव अत्र अस्ति अद्य. अग्रिमे सप्ताहे एतत् समापयितुं शक्नुमः इति मन्ये. समीचीनम्. अस्तु, तर्हि शुभरात्रिः.
धन्यवादः.